ಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ
ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿ ಬಿಸ್ಸೀದ ಸಾಧನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿವಾಜಿನೀವತಿ ಧೀನಾಮ ವಿತ್ರಯಮತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓ ಶಿವ ತನೂರ ಘೋರ ಪಾಪ ಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾಗಿರಿಶ ತಾಭಿಚಾಕಶೀ ಯಾಮಿ ಶುಂಗಿರಿಶಂತ ಹಸ್ತೆ ಬಿಭರ್ಷಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಕುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾಗಿರಿಶಾರ್ಚಾ ವದಾಮಸಿ ಯಥಾ ನಸ್ತರ್ವಮಿ ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅದ್ಯ ವೋಚದದಿ ಭಕ್ತಾ ಪ್ರಥಮೋದೈವ್ಯೋಭಿಷಕ ಅಹೇಕಶ್ಚ ಸರ್ವಾ ಜಂಭಯ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಏಮಹೇ ಅಸವ್ಯೋ ಬಸರ್ಪತಿ ನೀಲಗ್ರೇವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನ ದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೇವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಥೋ ಜೇ ಅಸ್ಯ ಸತ್ವಾನೋ ಹಂತೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾರ್ಜ್ಞಯೋರ್ಜಾ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇ ಶುಧೇ ನಿಚೇರ್ಯ ಶಲ್ಯಾನಾ ಮುಖ ಶಿವೋರ ಸುಮನಾ ಭವ ವಿಜ್ಜಂ ಧನುಕ್ ಕಪರ್ದಿಣೋ ವಿಷಯ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಷನ್ನಸ್ಯೇ ಶವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತಿ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯ ನಾತತಾಯ ಧೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಶುಧಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾ ಶಿವಾಯ శ్రీమన్మహ దేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్య హరికేశేభ్య పశూనాం పతయే నమో నమః. తస్మిన్ చ రాజ ద్విషేవతే పథేనా పతయే నమో నమో బభ్లుషాయ వివ్యాధినేన్నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగదాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రానాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షానాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షానాం పతయే నమో నమో. భువంతయే వారివస్కృతాయౌషధేనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయాత్ క్రందయతే భక్తీనాం పతయే నమో నమ. కృత్సవీతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. ककुभाय निषङ्गिने सेनानां पतये नमो नमो. निषङ्गिन इषु धिमति तत्कराणां पतये नमो नमो. वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो. निचेरवे परिचरायारण्यानां పతయే నమో నమః. శ్రికాభిభ్యో జిగాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో. సిమద్భ్యో నక్తం చరల్భ్యః ప్రగృంతానాం పతయే నమో నమ. ఉష్ణీషినే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషు మద్భ్యో దణ్వాభిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్ఛద్భ్యో విశుజద్భ్యశ్చ వో నమో. నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ. ఆసీనేభ్యశ్చ జ్ఞానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో. నమస్తిష్టద్భ్యో దావద్భ్యశ్చ వో నమో. నమస్సభాభ్యః సభాపతిభ్యశ్చ వో నమో. నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిద్యంతేభ్యశ్చ వో నమో. నమ ఉగణాభ్యస్త్రిగుంహరీభ్యశ్చ వో నమో. నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో. నమో వ్రాతేభ్యో వ్రాతపదిభ్యశ్చ వో నమో. నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో. నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో. నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో. నమో రథిభ్యో రథేభ్యశ్చ వో నమో. నమో రథేభ్యో రథపదిభ్యశ్చ వో నమో. నమస్సేనాభ్యః సేనానిభ్యశ్చ వో నమో. నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో. నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో. నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో. నమః पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो दन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वणिभ्यश्च वो नमो नमश्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नम शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नम कपर्दिने च द्युप्तकेशाय च नम सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्ठाय च नमो मीलुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च पर्श्येजसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम शीघ्रियाय च शेभ्याय च नम ऊर्म्याय चावस्वन्याय च नम श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुध्नियाय च नम सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय चावसान्याय च नमो मन्याय च कक्षाय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावभिन्दते च नमो ृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धीमते च नम तीक्ष्णेशवे चायुधिने च नम स्वायुधाय च सुधन्वने च नम श्रुत्याय च पत्याय च नम काट्याय च नीप्याय च नम सूत्याय च सरस्याय च नमो नात्याय च वैशन्ताय च नम कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नम ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्खाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे बधाय च दूरे बधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नम शम्भवे च मयो भवे च नम शङ्कराय च मयस्कराय च नम शिवाय च शिवतराय च नम तीर्थ्याय च कोल्याय च नम पार्याय च वार्याय च नम प्रतरणाय चोत्तरणाय च नम आतार्याय च लाद्याय च नम षष्प्याय च फेन्द्याय च नम सिकत्याय च प्रबाह्याय च नमः इरिञ्जाय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्काय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्व्याय च नमः पर्याय च पर्णशद्याय च नमो बगुरमानाय चाभिघ्नदे च नमः आखिदते च प्रखिदते च नमो वक्रिगेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीभत्केभ्यः द्रावे अन्धतस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषा किञ्चन मम याते रुद्र शिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रभरामहे मतिम् यथा नः समसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीर्षः मानस्तो केतन हेमान आयुषि मानो गोषु मानो अश्वेषुरीर्षः वीरान्मानो रुद्रभामितो वदे अविश्वन्तो नमसा विधेमते आराते गोग्नभुत पुरुषग्ने क्षयद्वेराजसुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूषधा च न शर्म यच्छ द्विबर्हा स्तुहि श्रुतम् गर्थ सदयुपानम् मृगन्न भीममुपहत्वमुग्रम् चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरगायो अवस्थिरा मगवद्भ्यस्तनुष्वमेघस्तोकायतनयाय मृडया मेदुष्टम शिवतम शिवो न सुमना भवा परमे वृक्ष आयुधन्निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रकुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखागृहे सहस्राणि सहस्रशो ये रुद्राधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मधे अस्मिन् महत्यर्णवे अन्तरिक्षे भव अधे नीलग्रेवाचिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विवतो जनान ये पथाम् पतिरक्षय ऐलभृदायव्युधः ये तीर्थाणि प्रचरन्ति शिकावन्तोनि शङ्गिणः य एतावन्तश्च भूयातुम् सश्च दिशो रुद्राविदस्थिरे तेषाकुम् सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिविजेषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रति चीर्धशोति चीर्धशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् विष्मो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मोक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य औषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो भाविशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हियस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भृद्देववसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेशजो यगुम् शिवाभिमर्शनः ओ शान्तिः 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 ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे जन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे वहश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मेण मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुषा च मे सुदृढम् च मे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा
ಷಣ್ಣಿಂದ್ರೋಹಸ್ಪತಿಃ ಷಣ್ಣೋ ವಿಷ್ಣುರುಕ್ರಮಃ ನಮೋ ಬ್ರಹ್ಮಣೇ ನಮಸ್ತೆ ವಾಯೋ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮ ವದಿಷ್ಯಾಮಿ ಋತಂ ವದಿಷ್ಯಾಮಿ ಸತ್ಯಂ ವದಿಷ್ಯಾಮಿ ತನ್ಮಾಮವತು ತದ್ವಕ್ತಾರಮವತು ಅವತು ಮಾಂ ಅವತು ವಕ್ತಾರಂ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಶಿಕ್ಷಾಂ ವ್ಯಾಖ್ಯಾಸ್ಯಾಮಃ ವರ್ಣಸ್ವರಃ ಮಾತ್ರಾಬಲಂ ಸಾಮಸಂತಾನಃ ಇತ್ಯುಕ್ತಶೀರ್ಷಾಧ್ಯಾಯಃ ಸಹನೌ ಯಶಃ ಸಹನೌ ಬ್ರಹ್ಮವಚ್ಚಸಂ ಅಧಾದಸ್ಯ ಗುಂಹಿತಾಯ ಉಪನಿಷದಂ ವ್ಯಾಖ್ಯಾಸ್ಯಾಮಃ ಪಂಚಸ್ವಧಿಕರಣೇಶು ಅಧಿಲೋಕಮಧಿಜ್ಯೋತಿಷಮಧಿವಿದ್ಯಮಧಿಪ್ರಜಮಧ್ಯಾತ್ಮಂ ತಾಮಹ ಸಗುಂಹಿತಾ ಇತ್ಯಾಚಕ್ಷತೆ ಅಧಾದಿಲೋಕಂ ಪೃಥಿವೀ ಪೂರ್ವರೂಪಂ ವ್ಯೌರುತ್ತರರೂಪಂ ಆಕಾಶಸ್ಸಂಧಿಃ ವಾಯುಸ್ಸಂಧಾನಂ ಇತ್ಯಭಿಲೋಕಂ ಅಧಾದಿಜ್ಯೋತಿಷಂ ಅಗ್ನಿಪೂರ್ವರೂಪಂ ಆದಿತ್ಯ ಉತ್ತರರೂಪಂ ಆಪಸ್ಸಂಧಿಃ ವೈದ್ಯುತಸ್ಸಂಧಾನಂ ಇತ್ಯಭಿಜ್ಯೋತಿಷಂ ಅಧಾದಿವಿದ್ಯಂ ಆಚಾರ್ಯಪೂರ್ವರೂಪಂ ಅಂತೇವಾಸ್ಯುತ್ತರರೂಪಂ ವಿದ್ಯಾಸಂಧಿಃ ಪ್ರವಚನಗುಂ ಸಂಧಾನಂ ಇತ್ಯಭಿವಿದ್ಯಂ ಅಧಾಭಿಪ್ರಜಂ ಮಾತಾಪೂರ್ವರೂಪಂ ಪಿತೋತ್ತರರೂಪಂ ಪ್ರಜಾಸಂಧಿಃ ಪ್ರಜನನಗುಂ ಸಂಧಾನಂ ಇತ್ಯಭಿಪ್ರಜಂ ಅಧಾಧ್ಯಾತ್ಮಂ ಅಧರಾಹನುಪೂರ್ವರೂಪಂ ಉತ್ತರಾಹನುರುತ್ತರರೂಪಂ ವಾಕ್ಸಂಧಿಃ ಜಿಹ್ವಾಸಂಧಾನಂ ಇತ್ಯಧ್ಯಾತ್ಮಂ ಇತಿ ಮಾಮಹಾಸಗುಂಹಿತಾಃ ಯಹೇವಮೇತಾ ಮಹಾಸಗುಂಹಿತಾ ವ್ಯಾಖ್ಯಾತಾ ವೇದ ಸಂಧೀಯತೆ ಪ್ರಜಯಾ ಪಶುಭಿಃ ಬ್ರಹ್ಮವಚ್ಚಸೇನಾನ್ನಾದ್ಯೇನ ಸುವರ್ಗೇಣ ಲೋಕೇನ ಯಶ್ಚಂದಸಾ ಮೃಷಭೋ ವಿಶ್ವರೂಪಃ ಛಂದೋಭ್ಯೋಧ್ಯಮೃತಾತ್ ಸಂಬಭೂವ ಸಮೇಂದ್ರ ಮೇಧಯಾ ಸ್ಪೃಣೋತು ಅಮೃತಸ್ಯ ದೇವಧಾರಣೋ ಭೂಯಾಸಂ ಶರೀರಂ ಮೇ ವಿಚರ್ಷಣಂ ಜಿಹ್ವಾ ಮೇ ಮಧುಮತ್ತಮಾ ಕರ್ಣಾಭ್ಯಾಂ ಭೂರಿ ವಿಶ್ರುವಂ ಬ್ರಹ್ಮಣ ಕೋಶೋಸಿ ಮೇಧಯಾ ಪಿಹಿತಃ ಶ್ರುತಂ ಮೇ ಗೋಪಾಯಾ ಆವಹಂತಿ ವಿತನ್ಮಾಯಾ ಕುರ್ವಾಣಾ ಚಿರಮಾತ್ಮನಃ ವಾಸಾಗುಂಸಿ ಮಮ ಗಾವಶ್ಚ ಅನ್ನಪಾನೇ ಚ ಸರ್ವದಾ ತತೋ ಮೇ ಶ್ರಿಯಮಾವಹ ಯೋಮಶಾಂ ಪಶುಭಿಃ స్వాహా ఆమాయంతు బ్రహ్మచారిణ స్వాహా విమాయంతు బ్రహ్మచారిణ స్వాహా ప్రమాయంతు బ్రహ్మచారిణ స్వాహా దమాయంతు బ్రహ్మచారిణ స్వాహా శమాయంతు బ్రహ్మచారిణ స్వాహా యశోజనే సాధి స్వాహా శ్రేయాన్వస్యసోచాని స్వాహా తం త్వాభగ ప్రవిశాని స్వాహా సమాభగ ప్రవిశ స్వాహా తస్మిన్ సహస్రశాఖే నివగాహం త్వయి మృజే స్వాహా యథా పప్రవతాయంతే యథా మాతా అహజ్జరం ఏవం మాం బ్రహ్మచారిణః దాతరాయంతు సర్వత స్వాహా ప్రతివేశోసి ప్రమాభాహి ప్రమాపద్య స్వా భూర్భువస్సు వరితి వా ఏతాస్తిస్రో వ్యాహృదయః తాసామోహస్మైతాం చతుర్థీం మహాచమస్య ప్రవేదయతే మహితి తద్బ్రహ్మా స ఆత్మా అంగాన్యన్యా దేవతాః భూరితి వా అయం లోకః భువ ఇత్యంతరిక్షం సువరిత్యథో లోకః మఘ ఇత్యాదిత్యః ఆదిత్యేన వా సర్వే లోకా మహీయంతే భూరితి వా అగ్నిః భువ ఇతి వాయుః సువరిత్యాదిత్యః మఘ ఇతి చంద్రమాః చంద్రమసా వావ సర్వాణి జ్యోతిగుంసి మహీయంతే భూరితి వా రుచః భువ ఇతి సామాని సువరితి యజోగుంసి మఘ ఇతి బ్రహ్మా బ్రహ్మణా వావ సర్వే వేదా మహీయంతే భూరితి వై ప్రాణః భువ ఇత్యవానః సువరిదిర్వ్యానః మహ ఇత్యన్నం అన్నేన వావ సర్వే ప్రాణా మహీయంతే తావా ఏతాశ్చతస్రశ్చతుర్థా చతస్రశ్చతస్రో వ్యాహృదయః తాయో వేద సవేద బ్రహ్మా సర్వే స్మై దేవా బలివా వహంతే సయ ఏషాంతర్హృదయ ఆకాశః తస్మిన్ దయం పురుషో మనోమయః అమృతో హిరణ్మయః అంతరేణ తాలుకే యేషస్తన ఇవ బలంబదే సేంద్రయోనిః యత్రాసౌకే శాంతో వివర్తతే యవోహ్యశీర్షకపాలే భూరిత్యగ్నౌ ప్రతిష్ఠతే భువ ఇతి వాయో సువరిత్యాదిత్యే మహ ఇతి బ్రహ్మణి ఆప్నోతి స్వరాజ్యం ఆప్నోతి మనసస్పతిం వాక్పతిశ్చక్షుష్పతిః శ్రోత్రపతిర్విజ్ఞానపతిః ఏతత్తతో భవతి ఆకాశశరీరం బ్రహ్మా సత్యాత్మ ప్రాణారామం మన ఆనందం శాంతి సమృద్ధమమృతం ఇది प्राचीन योग्योपास्वा पृथिव्यन्तरिक्षम् ज्योतिषोऽवान्तरदिशा अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनो वाक्त्वक् चर्ममागुन्दग्रस्यावास्थिमज्जा एतदधिविधाय ऋषिरवोचत् पान्तम् वा इदगुम् सर्वम् पान्तेनैव पान्तग्स्पृणोतीति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिहस्मवा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुं शोमिति शस्त्राणि शगुं सन्ति ओमित्यध्वर्युप्रतिकरम् प्रतिघृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षण्णाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अधिधयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यपौरुसृष्टिः स्वाध्याय प्रवचने एवेति नाकोमौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्टम् गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्ममृतमस्मि द्रविणगुम् सवक्षसम् सुमेधा अमृतोक्षितः इति त्रिशङ्गोर्वेदानुवचनम् वेदमनोच्चाचार्योऽन्ते वाधिनमनुशास्ते सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् माव्यवच्छेत्से सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माभगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मच्छ्रेयागुं सो ब्राह्मणाः तेषां त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् भिया देयम् संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणाः सम्मर्षिणः युक्ताः युक्ताः अलोक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः सम्मर्षिणः युक्ता युक्ताः अलोक्षा धर्मकामाः स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शण्णो मित्रः शं वरुणः शण्णो भवत्वर्यवा शण्ण इन्द्रो बृहस्पतिः शण्णो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मावेत् तद्भक्तारमावेत् आवेन्माम् आवेद्भक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मन्वदसृजत तदकामयत समात्मनापद्येयेते आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमकुम्भूतः प्रत्यशृणोत् स दशहूतो भवत् दशहूतो ह वै रामैषः त्वं वा एतम् दशहूतगुम् सन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम्भूत प्रत्यशृणोत् स सप्तहूतो भवत सप्तहूतो ह वै रामैषः त्वं वा एतम् सप्तहूतगुम् सन्तम् सप्तहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुम् भूत प्रत्यशृणोत् स षड्भूतो भवत् षड्भूतो ह वै रामैषः तम् वा एतम् षड्भूतगुम् सन्तम् षड्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवाः आत्मन्नात्मन्नित्या मन्त्रयत तस्मै पञ्चमगुम् भूत प्रत्यशृणोत् स पञ्चभूतो भवत् पञ्चभूतो ह वै नामैषः तम् वा एतम् पञ्चभूतगुम् सन्तम् पञ्चभूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवाः आत्मन्नात्मन्नित्या मन्त्रयत तस्मै चतुर्थगुम् भूत प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो ह वै नामैषः तम् वा एतम् चतुर्भूतगुम् सन्तम् चतुर्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवा स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।